ేభ్యస్త్రియుగం పురా మునైను బ్రూణామహం శతం ధామాని సప్త శతం వో అంబధామాని సహస్రముతోరుహక్రోజమిమం మే అగదం కృత ఓషధీ ప్రతిమోదధ్వం పుష్పవతీ ప్రసూవరీ అశ్వాయువ సజిత్వరీర్విరుధ పారయుష్ణవాషధీరితి మాతరస్తద్వో దేవీరుపబ్రువే సమేయమశ్వంగాం వాస ఆత్మానం తవ పూరుష అశ్వత్యేవో నిషదనం వర్ణేవో వసతిష్కృత గోభాజయక్తిలాసతయత్సనవతపూరుషం యత్రౌషధీ సమగ్మదరాజా సమీతమివ విప్రస్సముచ్యతే భిషగ్రక్షోహామీ వచాతనః అశ్వావతీం సోమావతీ మూర్జయంతీ ముదోజసం ఆవిత్స సర్వావోషధీరస్మారిష్టదాదయే ఉచ్యష్మావోషధీనాం గావో గోష్ఠాది వేరతే ధనం దర్శ్యంతీ నామాత్మానం తవ పూరుష నిష్క్రీతిర్నామ వో మాతాథో యూజం స నిష్క్రీతీ శీరాః పదత్రిణీ స్థనయదామయతి నిష్కృత అతివిశ్వాపరిష్టాస్తేన ఏవ వృధమక్రమో ఓషధీ ప్రాజచ్చ వర్యక్తిం చ తన్వో యది మా వాజయన్నమోషధీర్వస్తాదే ఆత్మాయక్ష్మస్య నశ్యతి పురాజీవ గర్భో యథా యస్యోషధే ప్రసత్పథాంగమంగం పరుష్పరో తదో యక్ష్మం విభాధ్వ ఉగ్రో మధ్యమసీరివ సాకం యక్ష్మ ప్రపదచాషేన కికి జీవినా సాకం వాత్రాజ్యాకం నశాకయా అన్యావో అన్యామవత్న్యాన్యస్యాపుపావత సర్వా సంవిధానాదం మే ప్రావతావచః యా ఫలినీర్యా ఫలా పుష్పాయాశ్చ పుష్పిణీః బృహస్పతి ప్రసూతాస్థానో ముంచంత్వం గసః ముంచంతో మాతపథ్యాణ్యాదుత అథోయమస్య పడ్వీషాత్సర్వస్మాద్దేవగల్భిషాద్ అపపదం తీరపదం దివమోషధయస్పరి యం దీవమశ్నవామహైనహరిష్యాదిపూరుషః యావోషధీ సోమరాజ్ఞీర్బహ్వీ సదవీచక్షణాః తాసాంతమస్యత్తమారం కామాయ సంహృతే యావోషధీ సోమరాజ్ఞీర్విష్టీదా పృథివీమను బృహస్పతి ప్రసూతాశ్లీలం దత్తలీర్యం మావోరిషత్ఖనితాయస్మై చాహం ఖనామివ ఇవ చతుష్పదస్మాకం సర్వమస్త్వనాతురం యాశ్చేదముపశృణ్వంతి యాశ్చ దూరం పరాగతాః సర్వాః సంగత్య వీరుధోస్తే సందత్త వీర్యం ఓషధయః సంవదంతే సోమేన సహ రాజ్ఞా యస్మై కృణోతి బ్రాహ్మణస్తం రాజన్ పారయామసి సమాస్యోషధే తవ వృక్షా ఉపస్థయః ఉపస్థిరస్మాకం యో అస్మాభిదాసతి బృహస్పతే ప్రతి మే దేవతామిహి మిత్రో వాజగ్వరుణో వాసి భూషా ఆదిత్యైర్వాజగ్వసోభిర్మరుత్వాం సమర్జన్యం సంతానవే వృషాయ ఆ దేవో దూతో అజగస్తి కృత్వాం త్వద్దేవాపే అభిమామాగచ్చత్ ప్రదీచీన ప్రతిమామావృత్సదామదీం వాచమాసన్ అస్మేధే యజ్ఞమదీం వాచమాసన్ బృహస్పతే అనీవామీషిరా या वृत्तिम् सन्तन वेवनावधिवो द्रप्सो मधुमाविवेश द्रप्सा मधुमन्तो विसन्तीन्द्र देह्यधीरथम् सहस्रम् निषीदहोत्रमृतथाय जस्वदेवान् देवापे अभिषासपर्य आष्टिषेणो होत्रमृषन् निषेदम् देवाभिर्देव सुमतिम् चिघित्वान् समुत्तरस्मादशरम् समुद्रभवोदृजाद्वर्षा अभि अस्मिन् समुद्रे अध्युत्तरस्मिन्नापो देवेभिर्निवेदाधिष्ठन् अध्रमन्नाष्टिषेणेन सृष्टा देवापि ना प्रेषिता वृक्षिणीषु यद्देवा विश्वन्दानवे पुरोहितो होत्राय मृतकृपजन्नदीधे देवश्रुतम् वृष्टिपनिम्रतालो बृहस्पतिर्वाचमस्मायच्छत् देवाभिश्रुतधानो अग्नाष्टिषेणो मा दृश्यः समीधे विश्वेभिर्देवैरनुमद्यमानः प्रपर्जन्यमीरजा वृष्टिमन्तम् त्वाम् पूर्वरयोगेभिरायन्त्वामध्वरेषु पुरुगोत विश्वे सहस्राण्यधीरथान्यस्मे आनो यज्ञम् रोहितस्वोपायाहि एतान्यग्नेन पतिर्नवत्वे आहूतान्यधीरथा सहस्रा तेभिर्वध्यस्वदन्वस्तूरभूर्भिर्दिवो नो वृष्टिमीषितोरीः एतान्यग्नेन पतिम् सकस्रादम् प्रयच्छ विश्वमिन्द्राय भागम् विद्वान्वसर्तुतो देवजानानप्यौलानम् दिवि देवेषु धेहि अग्ने वाचस्व विमृतो विदुर्गा वामी वामपरक्षाम् सिषेध अस्मान् समुद्राद्रे गतो दिवो नोपाम् भूमानमुपालसृजेह कण्डश्चित्रमेषण्यसिजिगित्वान्प्रेजग्मानम् वास्रम् वा बृधद्यैः कर्तस्यदा दुःसवासोऽव्योष्ठौ तक्षद्वज्रम् रेत्रसुरमपिन्वत् स यद्युताभिद्युता वेदि सामर्थ्यम् योनिमसुरत्वा स साध सदनेलेभिप्रसहानो अस्य भ्रातुर्नृते सप्तथस्य मायाः समाजम् जापादुष्पदाजम् स्वर्षादा परिषदत्सरिष्यन् अनर्वायच्छतदूरस्य वेदोघ्नान् चित्रदेवा अभिवर्प सा भूत् सजक्ष्योपनीर्गोश्वर्वायुगोधिप्रधन्यासुतश्रीः अपादो यत्र युज्यासो रथाद्रोण्यश्वासीरते घृतम् वा सरद्रेभिरसस्तवारुग्वाहित्तिगजमारे अवध्यागात् अम्रस्य मन्ये मिथुनाविभौरि अन्नमभीत्या रोदयन्मुषायन् सैद्धासम् द्विरवम्पतिर्दन्धरलक्षन्त्रि शीर्षानन्दमन्यत् अस्य त्रितोऽन्वोजसा वृधानो विपावराघमयो अग्रयाहन् सद्रह्वाने मनोषमूर्ध्वसानासा विषदर्शसानायसरम् सकृतमोनघोषोऽस्मत्सुजातः पुरोभिरदर्गन्धस्युहत्ये सो अभ्रियो न यमासौधन्यान् क्षया जगातम् विदन्नो अस्मे उपयत्सेदनिन्दम् शरीरैश्येनो यो पाष्टिर्हन्ति तस्यून् सम्राधदस्वसानेभिरस्य उत्साय सुष्टम् कृपणे परादात् अयम् कविमानयच्छस्यमानमर्कम् यो अस्य सनीतोतनृणाम् अयम् तस्यन्दर्ये विरस्य लक्ष्मो देवेभिर्वरो नो न माजी अयम् कनीर ऋतुपा वेद्यमीमीदारम् यश्चतुष्पात् अस्य स्तोमेभिरौसिज ऋजिष्वा बृहन्दरय दृढवेरभिप्रोः श्रुत्वा यद्यजतो दीतयद्वेः पुरायानो अभिवर्प सा भूत् ఏవామో ఆసురవక్షదాయవం రగఃపద్భిరుపాసర్పదింద్రం శరీరానక్కారతి సుతిమస్మాషమూర్జం సుక్షితిం విశ్వమాభాః ఇంద్రదృహ్యామగమంత్వాపదిర్భుజయుగస్సుతపాబోధినో వృధే దేవేభిర్నమస్తు విదా ప్రావదస్సుతమా సర్వదాధిమదీతిం వృణీమహే భరాయ సుభారత భాగభృత్యజం ప్రవాయవే శుచిపే క్రంతదిష్టయే గౌరస్య యః ప్రజా సమీతిమాన సా సర్వదాధిమదీతిం వృణీమహే విషద్వజోజతేమానాయ సంవతేవాన్ ప్రతిభూషేమపాగపదా సర్వదాధిమదీతిమృణీమహే ఇంద్రో అస్మే సుమనా అస్సు విశ్వారాజాసోమస్సు విదస్యాధ్యేదున యథాయథా మిత్రధీతాని సంధురా సర్వదాధిమదీతిమృణీమహే ఇంద్ర ముక్తేన సమాసా పరుర్దధే బృహస్పతే ప్రదభీతాస్యాయుషః యజ్ఞో మనః ప్రమాదన్నః పితా హి గమా సర్వదాధిమదీతిమృణీమహే ఇంద్రస్య ను సుకృతం దైవ్యం సహోగ్నిర్గృహే జరితా మేధీరః కవిః యజ్ఞశ్చ భూర్భిదధే చారురంధమా సర్వదాధిమదీతిమృణీమహే నభో గృహా చక్రమభూరే దుష్కృతం నావిష్యం వసవో దేవహేళనం మాగన్నో దేవాహృదశ సర్వదాధిమదీతిమృణీమహే అపామీ వాం సవితాసావిషణ్యా అగ్వరీయయితపసే ధన్వద్రజః గ్రాభాయత్ర మధురదుచ్ఛతే బృహదా సర్వదాధిమదీతిమృణీమహే ఊర్ధ్వగ్రావామసవోస్తు సోదరి విశ్వాద్వేషాంసి సనుతర్యూయోత స నో దేవస్స విదా పాయుర్యా సర్వదాధిమదీతిమృణీమహే ఊర్జం గాభోజవసేపీవో అత్తరృతస్యాస్త నేకోసే అన్వే అనుదేవతన్వో అస్సు భేషజమా సర్వదాధిమదీతిమృణీమహే కృతప్రావాజలితా సశ్వతామబలీంద్రయుద్భద్రా ప్రమాది సుతావతాం ఊర్ణమోదర్దివ్యం యస్య దిక్తయా సర్వదాధిమదీతిమృణీమహే చిత్రస్తే భానుక్రతుప్రాభిష్టిః సంతి స్మృతో జరణి ప్రాధృష్టాః ఉద్బుధ్యధ్వం సమానసః సఖాయః సమగ్నిమింద్రం భగవస్స నీరాజిక్రామగ్నిముషసం చ దేవీమింద్రావతోపాసే నిహ్వాజేవ మంత్రాగ్రేణ ధ్వం దియాదనధ్వం నావామరిత్రపరాణీ కృణుధ్వం ఇష్ట్రేణ ధ్వమాయుధారం కృణధ్వం ప్రాంచం జగ్ధం ప్రణాయతా సఖాయః యునక్తీరాభియుగాదనధ్వం కృతేయోనో అపదేహబీజం గిరాజ సృష్టిః సభరాసం నో నేదీయత్సృణ్యః పక్వమేయాత్ క్షీరాయుంజంతి కవయో యుగావితన్వతే పృథగ్ ధీరా దేవేషు సుమ్నయా నిరాహావాన్ క్రేదోదన సంవరత్రాదధాతన సింజామహావతముద్రిణం వయం సుషేకమనుపక్షితం నిష్క్రేతాహావమవతం సోవరత్రం సోషేచలం ఉద్రిణం సింజే అక్షీతం వినీతా స్వాన్ హిరంజయాదస్వస్తివాహం రథమిక్రేణధ్వం ద్రోణాహావమవతమస్వచక్రమం సత్రకోశం సింజతా నృపాణం ృతంగ్రేణధ్వం దైవ నృపాణో వర్మాదేవ్యధ్వం బహుళా పృతూని పురఃకణ్వమాజాశీరదృష్టా మామస్వస్వచ్చమసో దృంగదాతం ఆబోధియం यज्ञियाम् वर्तभूतये देवा देवीम् यजताम् यज्ञियाभिः सानो दीयज्ञवसेवगत्वी सहस्रधारापयसामहीगौः आदोषिम् जहरिमेन्द्रो रूपसेवासीभिस्तक्षतास्मन्मयीभिः परिष्वजध्वम् दश कक्ष्याभिरुभेदुरौ प्रतिपन्निम् विमक्ता उभेदुरौ वह्निराभिब्धमानोऽन्तर्योनेव चलति द्विजानीः वनस्पतिम् वनाश्चापयध्वन्निषोजादिध्वमखानन्दमुत्सवम् कवृन्नरः कपृतमुद्दधातनचोदजतकुलसवाचसादये ष्ट्यग्रः पुत्रवाच्यावयोतय इन्द्रम् सपाधिकसोमवीतये प्रचेरथम् विदो कृतमिन्द्रो वधुष्णुया अस्मिन्नाजो पूर्वभूलस्वभाये धनपक्षेषु नो वमासो वगदिवासो अस्याधीरथम् यदजयत्सहस्रम् ीरभोन्मग्रदानीकविष्टो भरे घृतम् व्याचेन्द्रसेना अन्तर्यच्छदिघाम् ततो वज्रमिन्द्राभिदासतः दासस्य वामघवन्नाद्यस्य वासनुतर्यवजापथम् उद्नोतमाज्जर्ग्रेषाणकूनम् स्मृङ्गदभिमादिमेति मुष्कभारस्रव इच्छमानो जिलम् बाहु अभरत्सिषासन्नुपयन्ताजे नवमेहयन् वृषभम् मध्य आजेः तेन सुभर्वम् सतवत्सहस्रङ्गवामुद्गलः प्रथने जिगाय ककर्दवे वृषभो युक्तासीदमावसीत्सारथिरस्य केशी ुक्तस्य द्रवदः सहानसरिच्छन्दिष्पा निष्पदो मुद्गलानि उद प्रतिमुदघन्नस्य विद्वानुपायुनग्मं स गमत्र शिक्षन् इन्द्र उदापत्पतिमज्ञानामरम् गतपद्याभिकुद्मान् सुनमष्ट्राण्यजनकपर्दीव रत्रायाम् दार्वानह्यमानः ृम्नानि कृण्वन् भगवे जनायगास्पस्पसानावीरदत्त इमन्तम् वत्सविषभस्य युञ्जम् काष्ठाया मध्ये दृघनम् सयानम् येन जिगाय सदवत्सहस्रङ्गवामुद्गलः प्रदनाद्येषु आरे अघाकोन्वीदर्शयम् युञ्जन्ति तम् वा स्थापयन्ति स्मे तृणम् नोदकमाभरम् चुत्तरो धुरो वहति प्रदेति परिभृत्येव परिविद्यमानट्पीप्यानागूचक्रेणेव सिञ्चन् एषैष्याजिद्रध्याजयेम सुमङ्गलम् विनवदस्तु स्वातम् सममेष्टस्य जगदश्चक्षुरिन्द्रासि चक्षुषः ृषायदाजिम् मृषनाशिषासिषोदयन्मद्रीणायुजा आसृषिदा नो मृगभो न भीमोघना घनः क्षोभनश्चर्षणीना सङ्ग्रन्दनो निमिषये कवीरस्वतम् सेना अजयः साकमिन्द्राः सङ्क्रन्दनेनानिमिषेण धिष्णुना युत्कालेन दुश्चवनेन धिष्णुनाः तदिन्द्रेण जयत तत्सहध्वम् युधो न रयिषु हस्तेन वृष्णाः स यिषु हस्तैः सनि शङ्खभिर्वशी संसृष्टादयुध इन्द्रो घनेन संसृष्टजिस्सोमपाभाहुसध्यो उग्रधन् वा प्रतीहिताभिरस्ताः बृहस्पते परिदीयादे रक्षोहामित्राङ्गमबाधमानः भञ्जन् सेना प्रमृणो युधाजयन्नस्माकमेध्यपितारथानाम् फलविज्ञायस्तवीरः प्रवीरः सहस्वान्वाजी सह मानमुग्रः अभिवीरो अभिसत्त्वा सहोजाजैत्रमिन्द्ररथमातिष्ठगोवित् गोत्रभिरम् गोपितम् वज्र बाहुम् जयन्तमज्ञप्रमृणन्तमोजसा इमम् स जाता अनु वीरयध्वमिन्द्रम् सखायो अनुसम्रभध्वम् अधिगोत्राणि सहसाखाः मानोधयो वीरस्वतमञ्जुरिन्द्रः युद्धवनप्रेतनाकालयुध्योऽस्माकम् सेनाः अवधु प्रयुत्सु इन्द्र आसान्नेता बृहस्पतिर्दक्षिणा यज्ञः पुरयेतु सोमाः देवसेनामभिभञ्जतीनाम् जयन्तीनाम् मरुतो यन्त्वग्रम् इन्द्रस्य विष्णो वरुणस्य राज्ञा आदित्यानाम् मरुताम् सर्ध उग्रम् महामानसाम् भुवनच्छवानाम् घोषो देवानाम् जयतामुदस्थाय उद्धर्षयमघवन्नायुधान्युत्सत्त्वानाम् मामकानाम् मनांसि उद्रद्रहन्वाजिनाम् वाजीनान्युद्रथानाम् जयताम् यन्तु घोषाः अस्माकमिन्द्रः समृतेषु ध्वजेष्वस्माकम् जायुषवस्ता जयन्तु अस्माकम् वीरा उत्तरे भवन्तुस्मा देवा अवताहवेषु अमीषाम् चित्तम् प्रतिलोभयन्तीङ्गाङ्गान्यप्रेपरेहि अभिप्रेहि निर्दहृत्सुशोकैः रन्धेन मित्रास्तमसा सचन्ता प्रेता जयदानर इन्द्रो वश्यर्म यच्छतु उग्रावः सन्तु बाहवो नाधिष्या यथा सथ असौव्यासेनावरुदः परे रामभ्यैति नवोजसा स्पर्धमाना ताम् गोहदतमसापव्रते न यथा वीरामन्यो अन्यम् न जानात् अन्धामित्रा भवता शीर्षाणा अहजैव तेषाम् वो अग्निदग्धानामग्निमूलानामिन्द्रो हन्तु वरम् वरम् असा विश्वमः पुरो ततोभ्यम् गरिभ्याम् यज्ञमुपयाहितूयम् तोभ्यम् गिरोऽभिप्रवीराजियानादधन्विजयन्द्रिवासुतस्य अप्सुधूतस्य हरिमप्युदस्य जठरम् वृणस्व निमिक्षुर्यमत्र जयन्द्रतोभ्यम् तेभिर्वर्धस्वमदमुक्तवाः प्रोग्राम् प्रीतिम् वृष्णायम्नि सत्याम् प्रयैसुतस्य हर्यस्वतुभ्यम् इन्द्रधेनाभिरिगमादयस्वदेभिर्विस्वाभिश्रच्चाग्रहाः वीर्ये नवयो दधा नाभुषिजज्ञाः जावजिन्द्रमनुषोदुरो नेतस्तर्घणन्तः सदमाद्या सह णीजिभिष्टे हर्यस्वतुष्टो स्तोषम् नस्य पुरुरुचो जनाः सह मम् ज्येष्ठा भूतिम् वितिरे दधानास्तोतार इन्द्रतव सूरुदाभिः उपब्रह्माणि हरिवो हरिभ्याम् सोमस्य जाहि पीतये सुतस्य इन्द्रत्वा यज्ञः क्षमामानमानस्य ध्वरस्य प्रकेतः सहस्रवाचमभिमातिषाहम् सुतेरनम् मघवानम् सुवृत्तिम् उपभूषम् जिगिरो अप्रदीदमिन्द्रम् नमस्याज ऋतुःपानन्त सप्तापो देवी सुरणा अमृक्तायाभिः सिन्धुमदर इन्द्रपूर्भिः नवतिम् श्रोत्या नव च स्रवन्तीर्देवेभ्यो गातुम् मनुषे च विन्दः अहो महीरभिदस्तेरमुञ्जो जागरास्वधि देवयेकाः इन्द्रयास्त्वम् रक्तदूर्ये जगद्धताभिर्विश्वायुस्तन्वम् पुष्याः वीरेण्यक्रदुरिन्द्रस्व स्वस्ति ऋताभिधेना पुरुहूतमीष्टे आद्रायद्वित्रमकृणोदु लोकम् स साहे शक्रः कृदना अभिष्टिः स सुनम् गोमेम मघवानमिन्द्रमस्मिन् भरे दृतमम्बाज सातौ शृण्वन्तमुग्रमूदये समत्स्वघ्नन्तम् रत्नानि सञ्जितम् धनानाम् कदावासोऽस्तोत्रम् वर्यदावस्मसारुधद्वाः दीर्घम् सुतम् आदाप्याय हरियस्य सुयुजा विव्रता वेरर्वन्तानुसेवाः उहारजीनकेशिनापतिर्दन् अपयोरिन्द्रः पापजामर्थो न सस्रमानो विभीवान् शुभे यज्ञोजिजेतवीषीवान् सजायोरिन्द्रस्तर्पेषोपानतस्र पर्यन् नदयोर्विव्रतयोः सूर इन्द्राः अधियस्तौके समन्ताव्यतस्वन्तानपुष्ट्यै मनोजिशिप्राभ्याम् शिप्रणीवान् रास्तौ दृष्वौजारिष्वेभिस्तदक्षसूरसमवसाग्रतोभिर्मादरिष्वा मध्यम् यश्चक्रे सुभनायजस्य वेगिरीमसो गिरीमान् अरूतनुरद्भूतम् नरजाः अपनो विधिनाशीशीकृतावने मानृताः ब्रह्मायज्ञर्धग्जोषधित्वे ऊर्ध्वायत्ते त्रेति निभोज्ञस्य दूर्षु सद्मन् सजोर्नाभम् स्वयसम् सचायोः श्रूयेते वृष्णीरुपसे च निभोच्छ्रिये दर्वीररेपाः यया स्वेपात्रे सिञ्चसमुत् शतम् वायदुर्यप्रजित्वा सुमित्रयित्थास्तौ दुर्मित्रयित्थास्तौ प्राभोजग्धस्युहत्ये कुत्सपुत्रम् प्राभोजग्धस्युहत्ये कुत्सभत्सम् भद्रन्नो अभिवादयमनाः ओ हरिः ओ भावो ननन्ददिगर्थये देवितम् वा ते धियो वस्त्रापसेर सद्रीजीना जात वे प्रेम जीगस्तु दिने वृक्षादम् सृजेते पृष्टारेव पर्वरेणु सृजेते प्रायोगे वस्त्राध्यासा सुरेथाः दूते वरिष्ठो यशसा जने सुमापश्चादमयिषेवा पपानात् साकम् जिजा सगुणस्येव प्रक्षापस्येव चित्राय दुरागामिष्टम् अग्निरीवदेवयोर्दी दिवाम् सा परिज्ञानेव यजतः पुरुत्रा आपीवो अस्मे पितरेव पुत्रोऽग्रेव ऋचा नृपतीव तुर्यै इर्येव पुष्ट्यै गिरमेव भुज्यै श्रीवानेव हवमागामिष्टम् अवंसगेव पूषर्या सिंवाता मित्रेव ऋता सतरा सातपन्ता आदेवोच्चावयसा घर्म्येष्टामेषे वेषा स पर्या आपुरीषा शृण्येव जद्भरी दुर्फरी तू नैतोसेव दुर्फरी भर्फरीका उदन्यजे भजेम नाम देरूता मे जरायुभजरम् मलायु वज्रे वचर्च रञ्जारम् मलायुक्षेवाध्येरुदर्धरीथ उग्रा ऋभूनावर्खरभज्रखरज्रर्वायुर्नपर्फरक्षयद्रयीनाम् धर्मेव मधु जठरे सनेरूभगे पिता दुर्फरी पारिवारम् अतरेव स चरा चन्द्रनिन्दिङ्मनारिङ्गामनन्यानजग्नी बृहन्देव गम्भरेण प्रतिष्ठाम् पादेव गाधम् तर देविदातः कर्णेव सा सुरमिगिस्मरासोंसेवनो भजतम् चित्तमत्नाः आलङ्करे भवद्धे रजेते तारके वगवि नीचीन भारे ीलारेवस्येदमादुष्विदानाक्षामे भोर्जासूयवसात् स चेथे निर्ध्यावस्तोमम् धनुयामपाजमानो मन्त्रम् सरदेहोपयातम् यशो न भक्त्वम् मधुकोष्वन्तरा भूताम् सो अश्विनोः काममुक्राः अभिर्भिरेकेश्वरितः स जन्ते सृण्वन्तरेके समानेषु सोमाले सजीर्मदन्त उदक्षीणाधर्णे जिह्मायञ्चो नरके पताम आविरभूर्महिमाघो नमेषाम् विश्वम् जीवन्तमसो निरमोचि महिज्योतिः पितृषद्धत्तमागादुरपन्था दक्षिणाया अदर्शि उच्चारविदक्षिणावन्तो अस्तुर्ये अस्मदास्तदे सूर्येण हिरण्यतावृदत्वम् भजन् देवासोदास्तोमप्रतीरन्तायुः देवी पूर्त्यर्दक्षिणादेव यज्जानकभारिभ्यो नैरे गृह्णन्ति अथा नरः प्रजातदक्षिणासो मध्यभिया भगवः प्रणन्ति शतधारम् वायुमर्कम् स्वर्विदम् विचक्षधत्ते अभिचक्षते हविः ये वृणन्त्यप्रजयच्छन्ति सङ्गमे ते दक्षिणाम् दुहते सप्तमातरम् दक्षिणावान् प्रथमो हूतये दक्षिणावान् ग्रामनीरग्रामेति तमेव मन्ये नृपतिम् जनानाम् यः प्रथमो दक्षिणामाभिवाय तमेव ऋषिम् तमो ब्रह्माणमाहुर्यज्ञन्यम् सामगामुक्तसासम् स शुक्रस्य तन्वो वेदतिस्रो यः प्रथमो दक्षिणया रराध दक्षिणा स्वम् दक्षिणागाम् ददाति दक्षिणा चन्द्रमुदयद्धिरण्यम् दक्षिणान्नम् वनुतेजो न आत्मा दक्षिणाम् कर्म कृणुते विजानन् न भोजामम् नोर्नन्यच्छमीयोर्नरिष्टम् दिनम् व्यासन्देहभोजाः इदम् यद्विश्वम् भुवनम् स्वस्थैतत् सर्वम् दक्षिणैभ्यो ददाति भोजाजज्ञस्वरभिम् यो निमग्रे भोजाजज्ञर्मध्वा अय्या सुपासाः भोजाजज्ञरन्तःपेयम् सुराजा भोजाजज्ञर्ये अभूताः प्रयन्ति भोजाया स्वम् संव्रेजम् चासुम् भोजायास्ते कन्या आसुम्भमाना भोजस्येतम् पुष्करणी भवे स्वपरिष्कृतम् देवमानेव चित्रम् भोजमस्वासृष्टुबाहो वरन्ति सुमृद्रथो वर्तते दक्षिणायाः भोजम् देवासोपताभरेषु भोजः सत्त्वम् समनीयेषु चेता किमिच्छन्ति सर्वा प्रेतमानद्दूरेह्यध्वाजगूरिः पराचैः का स्नेहीति का परीतज्ञासीत् कथम् रसाजा अतरप्पयांसि इन्द्रस्य रुदीरीषिराचापि मगदिच्छन्ति प्रणयो निधीन्वाः अधिष्कतोऽभियसा तन्नावत्तथा रसाजा अतरम्पयांसि ीरेङ्गेन्द्रस्वरमेकादृशीकायस्येदम् दूतीरसरः परागात् आजगच्छान्मित्रमेनादशामासागवाम् गोपातिर्नो भवाति नागन्तम् वेदतभ्यन्तभर्तयस्येदम् दूतीरसरम् परागात् कथम् गोहन्त्यश्रवतो गभीरा हता इन्द्रेण पणयस्व यद्वे इमागावस्वरमेया ऐच्छपरि दिवो अन्तान् सुभगे पतन्ति कस्तयेना अवसुजातयुद्युतास्माकमायूधा सन्ति दिग्मा असेन्यावः पनयोपचारम् शरिषव्यास्तन्वः सन्तु पापीः अदृष्टा भजे तव अस्तु पन्था बृहस्पतिर्वगुभयानुमृणाति अयम् निधिश्च र मे अद्रे बुद्ध्रो गोभिरस्वेभिर्वसुभिर्नृष्टः रक्षम् इदम् वनयोजेषु गोपारे कोपदमलगमाज गन्थ येह गमन्विषय सोमासिता अयास्यो अङ्गीरसो न भग्वाः तयेतपूर्वम् विभजम् जगो नाम सैतद्वजः फलयोपमन्विते एवाचत्वम् स रम आजगन्ध प्रभाधिता सहसा दैव्येन स्वसारन्त्वा गृणवैमा पुनर्घा अपदे गवाहम् सुभगे भजाम नाहम् वेदभ्रातृत्वम् नो स्वसृत्वमिन्द्रो विदुरङ्गीरसश्च घोराः गोकामा मे अच्छदयन्यदा यमपात इदपनयोपरीयः दूरमीदपनयोपरीय उद्गावो यन्द्रविहतीर्नृतेन गृहस्वधिर्या अविन्दन्निगूढाः सोमो ग्रावाः नर्षयश्च विप्राः देवदन् प्रथमा ब्रह्मगिर्भिरेगूपालस्सलिलोमा तरिस्वाः वीरुहरास्तप उग्रोमयो भूरापो देवी प्रथमजारितेन सोमो राजा प्रथमो ब्रह्मजाजाम् पुनर्प्रायश्च दहृणीयमानः अन्वर्जितावरो नो मित्र आसीदग्निर्होता हस्तगृह्याणीनाय हस्तेनैव ग्राह्य आधिरस्या ब्रह्मजायेयमिति चेदवोचन् अजूराय प्रह्येदस्त एषा तथा राष्ट्रम् कुपितम् क्षत्रियस्य देवायेतस्या मम दन्तपूर्वे सप्तऋषयस्तपसेयेनिषेदुः भीमायाया ब्राह्मणस्योपनीता दुर्धाम् दधाति परमे व्योमन् ब्रह्मचारी च रतिमेभिषद्विषस्वदेवानाम् भवत्येकमङ्गम् तेन जायामन्वविन्दद्बृहस्पति सोमेन नीताम् जुह्वा अन्नदेवाः पुनर्वै देवाः दधुः पुनर्मनुष्या भूता राजानः सत्यम् कृण्वाना ब्रह्मजायाम् पुनर्दधुः पुनर्दाय ब्रह्मजायाम् कृत्वी देवैर्निगिर्भिषम् ऊर्जम् पृथिव्या भक्त्वा योरुगायमुपासते समिद्धो अद्य मनोषो दुरो मे देवो देवाञ्जसि जातवेदः आदवः मित्रमहस्ति गित्वा त्वम् दूतः कविरसि प्रचेताः तनूनवात्पथहृदस्य जानान्मध्वा समञ्जन् स्वदया शुचिह्वा मन्मानिधिभिहृदयज्ञवृन्धम् देवत्रा च गृणह्यध्वरम् नाः आजुह्वा नयेज्यो वञ्चश्चायाह्यग्ने वसुभिः सजोषाः त्वम् देवानामसि जह्वहो दासयेनान्यक्षैषितो यजीयान् प्राचीनम् बर्हिः प्रदिशा पृथिव्यावस्तो रस्यावृज्यते अग्रे अह्ना यो प्रथते वितरम् वरीयो देवेभ्यो अधीतये स्योनम् यजस्वतीरुर्विया विश्रयन्ताम् पतिभ्यो न जनयः शुम्भमानाः देवीर्द्वारो बृहतीर्विश्वमिन्द्रा देवेभ्यो भवत सुप्रायणाः आश्रयम् यजते उपागे उषासा नक्ता सततां नियो नौ दिव्ये योषणे बृहति सुरुक्मे अधिश्रियम् शुक्रभिषम् दधाने दैव्याहोतारा प्रथमा सुवाचाभिमाना यज्ञम् मनुषो यजध्यै प्रचोदयम् ताभिदथे शुकारो प्राचीनम् ज्योतिः प्रदिशा दिशन्ता आनो यज्ञम् भारतीतूयमेत्विलामनुष्णदिगचेतयन्ति तिस्रो देवेर्भरिगिरेतम् श्रोणम् सरस्वती स्वपसस्तदन्तु यमेद्या वा पृथिवीजनित्रीरूपैरपिम् सद्भुवनानि विश्वाः समद्यो दर्शितो यजीयान् देवम् त्वष्टारविगयक्षि विद्वान् उपावसृजत्मन्या समञ्जम् देवानाम् पासऋतुता हवींषि वनस्पतिः समिता देवो अग्निस्वदन्तु हव्यम् मधूना घृतेन सद्यो जातोऽव्यमीतयज्ञमग्निर्देवानामभवत्वरोगाः अस्य होदः प्रतिश्रुतस्य वाचि स्वाहा कृतम् हविरदन्तु देवाः मनीषिणः प्रभरध्वम् मनीषाम् यथा यथा मतयः सन्ति नृणाम् इन्द्रम् सत्यैरेरजामाकृतेभिस्तै वीरोगिर्वनस्विर्विदानः ृजस्यैतदसोऽधीतिरज्योत्सङ्गाश्रेयो वृषभो गोभीरानटे उदरिष्ठन्तविषेणानवेन महान्ति जित्संविर्व्याचारजांसि इन्द्र किल श्रुत्या अस्य वेदस यजिष्णुपधिकृत्सूर्याय आन्वेनाम् कृण्णम् यच्छुतो भुवद्वो पदरदिवस अप्रतीतः इन्द्रो गुन्नामागतो अर्णवस्य प्रतामीनादङ्गीरोभिर्गृणानः गुरूणि चिन्निदादानजाम् सिदाधारयो धर्मम् सत्यदाता इन्द्रो दिवप्रदिमानम् पृथिव्या विश्वा वेदसमानाहन्त्यसुष्णम् मयीम् जित्या मातनोत्सूर्येण चास्कम्भचित्कम्भनेन स्कभीयान् वज्रेण हि वृत्रहाभृत्रमस्तरदेवस्य सुषुवानस्य मायाः विदृष्णो अत्र दृढता च गन्थाथा भवो मघवन् बाह्वोजाः सजलम् अजलभृतः सूर्येण चित्रामस्य केतवो रामविन्दन् आयन्नक्षत्रम् ददृशे दिवो न पुनर्यतो न कीरद्धानुवेद दूरम् किल प्रथमा जग्मुरा सामिन्द्रस्य या प्रासवे शश्रुरापः स्मिदघ्रम् रुद्राः सामापो मध्यम् वो नूनमन्थाः सृजस्यन्द्रो नहीनाजग्रदानादिदेताक्रमी विज्रे देवेन मुमुक्षमाणा उदया वो मुज्रे देतानदमन्दे निजिक्ताः सद्धीते सिन्धो मुसतीरीवायन् सनाज्जारहारितः पूर्भिदासाम् अस्तमादे पार्थी वावसोऽन्यस्मे जग्मुस्तूनृता इन्द्रभूरीः इन्द्रपिबप्रतिकामम् सुतस्य प्रातः सावस्तमहि पूर्णवीधिः कर्णस्वहन्तवेशूरशत्रो नुक्ते भिट्टे वीर्या आप्रब्रवाम यस्ते रसोमन सोजवीयानेन्द्रतेन सोमपेयायाहि तूयमादेहरजः प्रद्रवन्तु जेभिर्यासिवृढभिर्मन्दमानः अरिष्टतावर्च सा सूर्यस्य श्रेष्ठैरूपैस्तन्वम् स्पर्शयस्व अस्माभिरिन्द्रसखेभिर्भुवानः सद्धीजीनो मादयस्व ऋषज्ञ यस्यत्यर्ते महिमानम् मदेष्विमे महीरोदसीनाविवित्ता हरिभिरिन्द्रयुक्तैः प्रियेभिर्याहि प्रियमन्नमच्छ यस्य सत्त्वविवा इन्द्रशत्रूरानुकृत्यारण्याः जगर्थ स ते पुरम् दिम् तवीषीमयति स ते मदाय सुत इन्द्रसोमाः